इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। झारखण्ड महाराष्ट्र राज्ययोः विधानसभा निर्वाचनैः सह विभिन्न राज्यानाम् अष्टचत्वारिंशद् विधानसभासनानां केरलस्य वायनाड संसदीय क्षेत्रस्य महाराष्ट्रस्य नान्देड संसदीय क्षेत्रस्य च उपनिर्वाचनस्य मतगणनायै सर्वाः सज्जताः सम्पूरिताः। मतगणना अद्य प्रातः अष्टवादने आरप्स्यते, अपि च मध्याह्ने एव परिणामाः अपेक्षिताः वर्तन्ते। सर्वप्रथमं प्रैष्य मतपत्राणां गणना भविष्यति। मतगणना प्रक्रियायाः सुचारु संचालनाय निर्वाचनायोगेन व्यापक व्यवस्था कृतास्ति। प्रत्येकस्मिन् मतगणना केन्द्रे त्रिस्तरीया सुरक्षा व्यवस्थापि विहितास्ति। अवधेयास्पदं वर्तते यत् झारखण्ड राज्ये अस्मिन् मासे त्रयोदश विंशति दिनांकयोः द्वयोः चरणयोः एकाशीति विधानसभासनेभ्यः मतदानं जातम्। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् विगतेषु दशसु वर्षेषु तस्य प्रशासनेन क्रियमाणानां रिफॉर्म, परफॉर्म, ट्रांसफॉर्म इत्येतेषां मन्त्राणां कारणात् विश्वं साम्प्रतं भारतस्य रणनीतिक महत्वं स्वीकरोति इति। प्रधानमन्त्री जर्मनीदेशस्य स्टटगार्ड इत्यत्र मीडिया हाउस इत्यनेन आयोजितम् एकं कार्यक्रमम् आभासीय माध्यमेन सम्बोधितवान्। राष्ट्रपतिः द्रौपदी मुर्मुः विकसित राष्ट्रं निर्मातुं राष्ट्रं प्रथमम् इत्येतस्य दृष्टिकोणस्य स्वीकरणस्य आवश्यकतायाः उपरि अवधानं दत्तवती। हैदराबाद नगरे लोकमन्थनस्य चतुर्थं संस्करणं सम्बोधयन्ती राष्ट्रपतिः सबलं प्रतिपादितवती यत् सर्वैः नागरिकैः देशस्य सांस्कृतिकं बौद्धिकं च परम्पराम् अवगन्तुम् अस्माकम् अमूल्य परम्पराणां सुदृढीकरणं च करणीयम् इति। गृहमन्त्रिणा अमितशाहेन निगदितं यत् अपराधस्य विरुद्धं प्रशासनस्य शून्य सहिष्णुतायाः नीतिः अस्ति, तथा च दिल्ल्याः विधिव्यवस्थायाः स्थितौ कस्यापि प्रकारकस्य शैथिल्यं न स्वीक्रियते। गृहमन्त्री ह्यः दिल्ली आरक्षकैः सह मेलनं कृत्वा विधिव्यवस्थायाः स्थितिं समीक्षितवान्। केन्द्रीय गृहसचिवः गोविन्द मोहनः, गुप्तचर विभागस्य निदेशकः तपन डेकाः, दिल्ल्यारक्षी आयुक्तः, अन्ये च वरिष्ठाः अधिकारिणः अस्यां सभायाम् उपस्थिताः आसन्। केन्द्रीय माध्यमिक शिक्षा बोर्ड इत्यनेन सिंगल गर्ल चाइल्ड स्कॉलरशिप इत्यस्य योजनायै अन्तर्जालीय माध्यमेन आवेदनानि आमन्त्रितानि। चतुर्विंशत्यधिक द्विसहस्रतमे वर्षे एतस्मात् मण्डलात् दशमकक्षाम् उत्तीर्णाः छात्राः अनया योजनया लाभान्विताः भविष्यन्ति। आवेदनाय अन्तिमं दिनं दिसम्बर मासस्य त्रयोविंशति दिनांको वर्तते। सर्वाः सूचनाः अन्तर्जालपटले तत्र उपलब्धाः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी नाइजीरिया, ब्राजील, गयाना देशानां यात्रावधौ अनेकैः विश्वनेतृभिः साकम् अनेकानि द्विपक्षीयोपवेशनानि विहितवान्। अत्रावधौ प्रधानमन्त्री एकत्रिंशत् द्विपक्षीयोपवेशनेषु भागम् अभजत्, अपि च वैश्विक नेतृभिः सह अनौपचारिकीं वार्ताम् अपि विहितवान्। श्रीमोदी नाइजीरिया देशे एकं, ब्राजील देशे दश, गयानायां च नव द्विपक्षीयोपवेशनानि समनुष्ठितवान्। प्रधानमन्त्री इण्डोनेशियायाः राष्ट्रपतिना प्रवोबो सुवियान्टो इत्यनेन पुर्तगालस्य प्रधानमन्त्रिणा लुइस मोन्टेनेग्रो इत्यमुना साकम् अनेकानि उपवेशनानि कृतवान्। रक्षामन्त्री राजनाथसिंहः लाओसदेशस्य राजधान्यां वियन्तियाने नगरे जापानदेशस्य रक्षामन्त्रिणा जनरल निकातानी इत्येतेन सह मेलनं कृतवान्। एकस्मिन् सामाजिक सन्देशपटले श्रीसिंहः अवोचत् यत् जनरल निकातानी इत्यमुना सह तस्य चर्चा समुचिता आसीत्। क्रिकेट प्रतिस्पर्धायां ऑस्ट्रेलिया दलेन पर्थस्थले बॉर्डर गावस्कर ट्रॉफी प्रतियोगितायाः प्रथमायां निकषस्पर्धायां भारतं विरुध्य प्रथमे पर्याये सप्तक्रीडकानां हानिः पुरस्सरं सप्तषष्टिः धावनांकाः निर्मिताः इति वार्ताः।